नमस्कारः।
ओम्
नमस्कार महोदय।
सहनावतु, सहनौ भुनक्तु, सह वीर्यं करवावहै, तेजस्विनावधीतमस्तु मा विद्विषावहै। ॐ शान्तिश्शान्तिश्शान्तिः। श्रीगुरुभ्यो नमः। हरिः ओम्।
नमस्कारः महोदय, धन्यवादः। सर्वेषां स्वागतम् अस्मिन् वर्गे। अस्माकं प्रवर्तमानः विषयः अस्ति हलन्तशब्दानां विभक्तिरूपाणि इति। तत्र वयं गतवर्गे तत्र मल्लिनाथस्य कथां पठितवन्तः। तत्र द्वितीया, तृतीया, चतुर्थी विभक्तयः आसन्। इदानीं तत्र तस्मिन् विषये किञ्चित् अभ्यासमपि कृत्वा कथारूपेण तत्र परिचयः जातः। द्वितीया, तृतीया, चतुर्थी विभक्तयः याः सन्ति तेषां परिचयः जातः। इदानीं तत्र किञ्चित् अभ्यासं कृत्वा तत्र अग्रे गच्छामः। तत्र अग्रे भवति तत्र पञ्चमी, षष्ठी इति अन्या विभक्तयः। अस्तु, शुभदा भगिनी नमस्कारः, गीताञ्जलि भगिनी नमस्कारः, नरेश महोदय नमस्कारः, कामाक्षी भगिनी नमस्कारः।
नमस्कारः।
हा, चिन्ता मास्तु, चिन्ता मास्तु भगिनी। हा, अस्तु। अतः किं कुर्मः, तत्र पुनःस्मरणार्थं तत्र प्रथमतया तत्र पेज् 19 गच्छामः। तत्र कथायाः अनन्तरं तत्र हलन्तशब्दानां तत्र पुल्लिङ्गरूपाणि दत्तानि, पुल्लिङ्गशब्दानां तत्र द्वितीया, तृतीया, चतुर्थी विभक्तिरूपाणि दत्तानि सन्ति। तत् एकवारं पठामः, कोष्टकरूपेण अस्ति तत्र। तत् एकवारं पठित्वा तदनन्तरम् अग्रे गच्छामः। अस्तु, तत् तर्हि पेज् 19 तत्र ईमेल् द्वारा लिङ्क् अपि अस्ति। यदि गीतासोपान द्वितीयभागः नास्ति चेत् तत्र लिङ्क् अस्ति, अतः तत्र अपि द्रष्टुं शक्नुवन्ति। तत्र लिङ्क् मध्ये तत्र प्रथमपुटः इति तत्र अहं वर्षं निगृह्णामि इति अस्ति, किन्तु तत्र पेज् 19 इति, तत्र प्रिण्टेड् पेज् 19 मल्लिनाथस्य कथा पेज् 18 मध्ये अस्ति। पेज् 19 मध्ये तत्र पुल्लिङ्गशब्दाः सन्ति। अतः तत्र ततः आरभ्य इदा अद्य पठामः। अस्तु, तर्हि तत्र गीताञ्जलि भगिनी, तत्र पुल्लिङ्गशब्द धीमत् इति शब्दस्य रूपाणि दत्तानि सन्ति, पठति वा एकवारम्?
आं महोदय, पुल्लिङ्गशब्दाः धीमत् तकारान्तः, द्वितीयविभक्तिः धीमन्तं, धीमन्तौ, धीमतः, तृतीयविभक्ति धीमता, धीमध्यां, धीमद्भिः, चतुर्थी विभक्ति धीमते, धीमध्यां, धीमध्यः।
हा, अपि एतद् एतानि रूपाणि वयं जानीमः खलु भगिनि, तत्र भवान् इति शब्दस्य भवत् इति प्रातिपदिकं खलु, तत्र तत्र दृष्ट्वा भवान् भवत् शब्दस्य रूपाणि एकवारं वदतु भगिनि तत्र।
आं महोदय, भवत्तु भवान्, भवन्तौ, भवन्तः, भवन्तं, भवन्तौ, भवतः, भवता, भवद्भ्यां, भवद्भिः, भवते, भवद्भ्यां, भवद्भिः,
न न, भवद्भ्यः, भवद्भ्यः एव,
भवद्भ्यः, क्षम्यतां, भवद्भ्यः।
अतः धीमत्, धीमत् इति, धीमत् इति यत् भवती पठितवती तदेव अस्ति खलु, सदृशम् अस्ति खलु।
द्वितीय, तृतीय, चतुर्थी समान एव महोदय भवत् शब्दस्य।
अतः तत्र
प्रथम, प्रथम तु भिन्न न महोदय, धीमन् धीमत् इति अस्ति अथवा
भवत्
भवान्।
हा, यतः भवत्, हा, भवत् भवान् भवति, धीमत् भवति धीमान्।
ओ, धीमान् भवति, अस्तु महोदय,
धीमान्, धीमन्तौ, धीमन्तः,
अस्तु महोदय।
प्रथमविभक्तिरूपाणि भवान् भवन्तो भवन्तः धीमान् धीमन्तौ धीमन्तः भवान् भवन्तो भवन्तः तादृश एव अस्ति. इदानीं तत्र अग्रे तत्र पतिनिति किञ्चित् विशेषपदम् अस्ति. तत्र पतिनकारान्तपदं साधारणतया न दृश्य पश्यामः, किन्तु अत्र दत्तमस्ति इति कृत्वा तस्य रूपाणि अपि एकवारं पठामः. नरेश् महोदय, तत्र पतिन् इति पदस्य रूपाणि पठति वा महोदय?
आं महोदय, पतिन् नकारान्तः द्वितीयाविभक्तिः पन्थानं पन्थानौ पथः, तृतीयाविभक्तिः पथा पथिभ्यां पथिभिः, चतुर्थी विभक्तिः पथे पथिभ्यां पथिभ्यः.
हा, धन्यवादः महोदय. अतः तत्र एतत् विशेषनकारान्तपदमस्ति, साधारणनकारान्तपदमस्ति, तत्र आत्मा वा अथवा राजन् वा ज्ञानिन् वा तद् अग्रे अग्रिमे पुटे अस्ति, किन्तु एतत् विशेषपदमस्ति. तत्र पश्यतु, तत्र आत्मानम् इति अस्ति, किन्तु तत्र पन्तानम् इति अस्ति, किन्तु तत्र प्रथमविभक्तिरूपाणि गतवर्गे दृष्टवन्तः खलु. तत्र पतिन् इति नकारान्तपदस्य प्रथमविभक्तिरूपाणि रूपाणि कोऽपि स्मरति वा? पतिन् अस्ति
पन्थाः, पन्थानौ पन्थानः, पन्थानौ पतः पतः.
अतः तत्र पन्ताः पन्थानौ
पन्थानौ पन्थानः
पन्थानः इति अस्ति. अतः तादृश तु आत्मा आत्मन् शब्दः अपि नास्ति, न वा राजन् शब्दः खलु. अतः तत् विशेषपदम् अस्ति. किन्तु यद् वयं कण्ठस्थीकर्तुम् इच्छामः तत्तु अस्ति आत्मा शब्दः अपि राजा शब्दः, एतदपि दत्तमस्ति. किन्तु भवतु, अस्तु, इदानीम् अग्रे गच्छामः. तत्र आत्मन् पदस्य एतत् सर्वं केवलम् एकवारं पठामः, मनसि स्थापयितुं सुलभं भवति इति कृत्वा तावदेव. अस्तु, कामाक्षी भगिनी अग्रे पठति वा आत्मन् इति अग्रिमे पुटे?
आम् महोदय. आत्मन् नकारान्तः द्वितीयविभक्तिः आत्मानम् आत्मानौ आत्मनः, तृतीया विभक्तिः आत्मना आत्मभ्याम् आत्मभिः, चतुर्थी विभक्तिः आत्मने आत्मभ्याम् आत्मभ्यः
आत्मभ्यः. अतः तत्र पतिन् शब्दस्य अपि आत्मन् शब्दस्य तयोः मध्ये भेदः अस्ति खलु भगिनि? अतः समानं नास्ति, समानं नास्ति. अतः तत्र पुल्लिङ्गे एव नकारान्तपदाः अनेकाः सन्ति, पदानि अनेकानि सन्ति, किन्तु आत्मन् अपि ज्ञानिन् राजन् एतद् साधारणतया एतादृशानि पदानि साधारणतया पश्यामः, पतिन् विरलतया पश्यामः. अस्तु, अग्रे लक्ष्मी भगिनी अग्रे, तत्र ज्ञानिन् इति
ज्ञानिन् नकारान्तः ज्ञानिन् शब्दः दिव्या विभक्तिः ज्ञानिन् ज्ञानिनौ ज्ञानिनः ज्ञानिना तृतीया विभक्ति ज्ञानिनः ज्ञानिभ्यः ज्ञानिभिः चतुर्थी विभक्ति ज्ञानिने ज्ञानिने ज्ञानिभ्यां ज्ञानिभ्यः.
हा भगिनि, तत्र एकवचनरूपम् एकवारं पुनः एकवारं पठति वा? केवलम् एकवचनरूपं
ज्ञानिनं ज्ञानिने ज्ञानिनः ज्ञानिना ज्ञानिने.
हा, ज्ञानिनं ज्ञानिना ज्ञानिने, समीचीनं भगिनि, धन्यवादः. समीचीनम्, अस्तु. अग्रे रघुवीरानन्द महोदय, तत्र सुहृद् इति पदस्य विभक्तिरूपाणि पठति वा महोदय?
महोदय, अग्रिमं पठामि महोदय, एकनिमिषम्.
अस्तु, चिन्ता मास्तु. अस्तु, तर्हि सुरकुमारी भगिनी अग्रे सुहृदं.
दकारान्तः सुहृत्शब्दः द्वितीयविभक्तिः प्रथमविभक्तिः सुहृद् महोदय
सुहृद् इति प्रथमविभक्तिरूपं स्मरति वा सुहृद् सुहृदौ सुहृदः
सुहृदौ सुहृदः द्वितीयविभक्तिः सुहृदं सुहृदौ सुहृदः तृतीयसुहृदा सुहृद्भ्यां सुहृद्भिः चतुर्थीविभक्ति सुहृदे सुहृद्भ्यां सुहृद्भ्यः
सुहृद्भ्यः यत्र यत्र भ्यः भवति तत्र जानीमः तत्र प्रायशः चतुर्थी वा पञ्चमी वा भवेत् इति अस्तु समीचीनम् अपि तत्र सुहृदे अस्ति तत्र एकर वदतु महोदय
न न महोदय इदानीं अहमपि
वक्तुं शक्नोति वा अस्तु अस्तु समीचीनं महोदय अस्तु अग्रे स्त्रीलिङ्गशब्दः तत्र सम्पद् इति वदतु महोदय
स्त्रीलिङ्गशब्दाः सम्पद् इति दकारान्तशब्दः द्वितीयविभक्तिः भवति सम्पदं सम्पदौ सम्पदः तृतीयविभक्तिः भवति सम्पदा सम्पद सम्पद्भ्यां सम्पद्भिः चतुर्थीविभक्तिः भवति सम्पदे सम्पद्भ्यां सम्पद्भ्यः
समीचीनं महोदय तत्र प्रथमविभक्तिरूपं स्मरति वा तत्र प्रायशः पूर्वं पूर्वस्मिन् पुटे अस्ति इति मन्ये तत्र सम्पद् सम्पदौ सम्पदः किञ्चित् तत्र पुल्लिङ्गरूपम् इव अस्ति
महोदय सम्पद्वा महोदय
तत्र दकारान्तपदम् इति दत्तमस्ति किन्तु तत्र किन्तु प्रथमाविभक्ति एकवचनरूपे सम्पद् अथवा सम्पत् तत्र विकल्पः अस्ति किन्तु दकारान्तपदमेव कथं जानीमः एतत् दकारान्तपदम् इत्युक्ते अस्माकं नियमः खलु समीचीनं महोदय अतः तत्र यद्यपि एकवचने तत्र विकल्पः अस्ति सम्पद् वा सम्पत् किन्तु द्विवचने सम्पदौ बहुवचने सम्पदः इति प्रथमविभक्तिरूपम् अस्ति अतः दकारान्तपदम्
महोदय
अस्तु इदानीं तत्र स्त्रीलिङ्गपदम् अपि तत्र दृष्टवन्तः अस्तु अग्रे तत्र शुभदा भगिनी अग्रे तत्र वाच् इति पदस्य रूपाणि एकवारं पठति वा भगिनि
आं महोदय वाचौ वाचौ वाचः द्वितीया विभक्ति वाचा वाग्भ्यां वाग्भिः तृतीया विभक्ति तृतीया विभक्तिः वाचे वाग्भ्यां वाग्भ्यः चतुर्थीविभक्ति
अस्तु तत् चकारान्तपदं तत्र चकारान्तपदम् एतत् चकारान्तपदम् अपि अग्रे भवति षकारान्तपदं पर्याप्तं तदनन्तरं केवलं नपुंसकलिङ्गशब्दाः सन्ति तत् कृत्वा तत्र अग्रे गच्छामः तत्र कथायाः विषये प्रश्नाः सन्ति तत्र तत् पश्यामः अस्तु तर्हि अग्रे तत्र ललिता भगिनी अग्रे तत्र आशिष् इति पदस्य रूपाणि पठति वा
आशिष् सकारान्तपदं सकारान्तपदं द्वितीया विभक्ति आशिषम् आशिषौ आशिषः तृतीया विभक्ति आशिषा आशीर्भ्याम् आशीर्भिः चतुर्थी विभक्ति आशिषे आशीर्भ्याम् आशीर्भ्यः प्रथमा विभक्ति आशिष् आशिषौ आशिषः
तत्र शकारान्तपदम् अस्ति किन्तु प्रथमाविभक्ति एकवचनरूपम् अस्ति आशीः इति तत्र केवलं तत्र शकारः नास्ति भगिनि किन्तु यत् आशिषौ समीचीनम् आशिषः द्विवचने बहुवचने समीचीनम् आशिषौ आशिषः केवलम् एकवचने तत्र शकारः नास्ति केवलम् आशीः इति भवति अस्तु समीचीनम् अस्तु अग्रे तत्र रघुपति महोदय तत्र मनस् इति रूपं तस्य रूपं एकवारं वदतु।
आं महोदय, मनस् सकारान्तपदमस्ति, द्वितीय मनः मनसि मनांसि इति प्रथम विभक्ति, द्वितीयविभक्ति मनः मनसि मनांसि तदेव, मनसा मनोभ्यां मनोभिः मनसे मनोभ्यां मनोभ्यः इति
तत्र मनः मनसि मनांसि नपुंसकलिङ्गम् अस्ति इति कृत्वा सामान्यम् अस्ति तत्र प्रथमविभक्ति अपि द्वितीयविभक्ति इति। अन्य कोऽपि अस्ति वा या यः वक्तुम् इच्छति अथवा या वक्तुम् इच्छति? अस्तु अस्तु तर्हि एतावत्पर्यन्तं कोऽपि सर्वे उक्तवन्तः खलु अत्र। अस्तु अग्रे तत्र किञ्चित् भगिनी अन्तिमं करोति वा तत्र धनुष् इति?
आं महोदय, धनुष् शकारान्त नपुंसकलिङ्गपदं प्रथमद्वितीयसमाने वा धनुः धनुषी धनूंषि अपि च तृतीया धनुषा धनुर्भ्यां धनुर्भिः चतुर्थी धनुषे धनुर्भ्यां धनुर्भ्यः।
समीचीनं भगिनि, समीचीनं
महोदय। किमर्थं प्रथमविभक्ति अत्र कोष्टके कस्यापि पदस्य न दत्तं महोदय?
यतः ते तत् सर्वं पूर्वमेव दत्तम् इति कृत्वा अत्र न दत्तम् इति मन्ये भगिनि।
पूर्णं जानाति इति ते न दत्तम्
तावदेव तत्र। हा नो चेत् तत्र किं, हा तत्र क्लेशः नास्ति किन्तु सर्वे स्मरन्ति इति कृत्वा इति चिन्तनं तावदेव भगिनि। हा किन्तु यदि वयं न स्मरामः तत्र स्वरूप महोदयस्य तु अस्ति खलु तत्र अभ्यासः अपि भवति अतः। अस्तु किन्तु प्रश्नः समीचीनः एव।
गीताञ्जलि भगिनी सर्वदा बालिका अस्माकं कक्षे।
अस्तु अस्तु, प्रश्नः तु समीचीनं, समीचीनः प्रश्नः एव भगिनि। हा अस्तु, इदानीं तत्र कथायाः विषये सर्वे स्मरन्ति वा? तत्र मल्लिनाथस्य कथा, तत्र तस्याः तस्य पत्नी तं प्रति किम् उक्तवती, तदनन्तरं सः किं कृतवान्, तत्र निम्बतैलस्य महत्त्वम्। अस्तु, इदानीं पुनस्मरण भवति कथायाः विषये, अतः तत्र पेज् 22 गच्छामः। तत्र अहं चिन्तयामि तत्र पेज् 21 मध्ये यत् आसीत् तद् वयं कृतवन्तः इति मन्ये खलु, तत्र प्रातिपदिकमपि धीमत् विद्वांसं तत् कृतवन्तः इति मन्ये 21 मध्ये यत् प्रथम अभ्यासः अस्ति इति। किन्तु अग्रे गच्छामः तत्र द्वितीय अभ्यासः, तत्र नरेश महोदय तत्र आरम्भं करोति वा, तत्र आवरणे रिक्तस्थानानि पूरयते इति।
आं महोदय, आवरणे रिक्तस्थानानि पूरयत, ततः तान् शब्दान् एकवचन द्विवचन बहुवचनक्रमेण लिखत। प्रातिपदिकम् एकवचनं द्विवचनं बहुवचनं, उदाहरणं परिषद् परिषदं परिषदौ परिषदः परिषदं परिषदौ परिषदः।
तत्र कार्यं किम् अस्ति महोदय अत्र?
अत्र एकवचनं द्विवचनं बहुवचनं
दत्तं तु अस्ति, दत्तम् अस्ति तत्र, उदाहरणे पदत्रयमपि दत्तम् अस्ति, केवलं तत्र
वचनं
कस्य पदस्य क्रमेण लेखनीयं तावदेव अत्र। समीचीनं महोदय, किन्तु अग्रे किं भवति तत्र?
अग्रे आपद् आपद् एकवचनम् आपदा
इति तत्र आपदा इति अस्ति चेत् तत्र अस्माकं कार्ये प्रथमकार्यः कार्यं किमस्ति तत्र विभक्ति का इति द्रष्टव्यमस्ति. तदनन्तरम् अत्र तृतीयविभक्तिः. अस्तु, समीचीनं. हा अस्तु महोदय, इदानीं तत्र तृतीयविभक्तिः तस्य आवश्यकता अस्ति, तस्याः आवश्यकता अस्ति अत्र.
तृतीयविभक्ति एकवचनम् आपदा अस्ति, द्विवचनम् आपद्भ्याम् अस्ति, बहुवचनम् आपद्भिः अस्ति.
हा समीचीनं महोदय, तत्र सम्पदा सम्पद्भ्यां सम्पद्भिः यथा आसीत् तथैव अत्र आपदा आपद्भ्याम् आपद्भिः इति रूपं भवति. समीचीनं महोदय. अस्तु, अग्रे कामाक्षि भगिनि.
आं महोदय, कर्मणि कर्मशब्दः कर्मण् तृतीयविभक्ति महोदय.
न न भगिनि, तत्र तत्र सर्वदा तृतीया इति नास्ति भगिनि, तत्र प्रत्येकस्य विभक्तिः परिवर्तिता भवति. तत्र इदानीं कर्म इति अस्ति, कर्मण् इति तु तत्र जानीमः, तत्र नपुंसकलिङ्गपदम् अस्ति, नपुंसकलिङ्गपदम् अस्ति. तत्र यदि हा यदि भगिनि तत्र प्रायशः तत्र कर्म इति हा प्रायशः अत्र न दत्तमस्ति भगिनि. तत्र किन्तु स्वरूप महोदयस्य करपत्रमपि अस्ति, तत्र लिङ्क् अस्ति तत्र ईमेल् मध्ये, तत् पश्यति चेत् तत्र कर्मण् इति पदस्य रूपाणि दत्तानि सन्ति. तत्र कर्म कर्मणि कर्माणि इति भवति भगिनि, तावदेव. कर्म कर्मणि कर्माणि इति तत्र नपुंसकलिङ्गे अस्ति इति कृत्वा तत् किं भवति, तत्र प्रथमाविभक्ति वा द्वितीयविभक्ति वा समानं रूपसमानम् इति भवति. अस्तु, अग्रिमं करोतु भगिनि. अतः
हा अन्तिमकर्म इति दत्तमस्ति, अन्तिमकर्म कर्म इति दत्तमस्ति खलु, किम् अस्ति तत्
न महोदय? अत्र किमस्ति इत्युक्ते न विभक्ति अपि चिन्तनीयं, वचनमपि चिन्तनीयं. तत्र तत्र किं रेकग्निशन् इति वदन्ति खलु, अभिज्ञानं, पदं दृष्ट्वा पदस्य कर्म इति पदस्य विभक्ति का अपि वचनं का इति प्रथमतया तत्र तस्य ज्ञानं भवेत्. तदनन्तरम् अन्य तस्यां विभक्त्यां अन्य वचनस्य रूपं लेखनीयम्. अतः तत्र कर्म इति अन्ते अस्ति, तद् न सूचयति बहुवचनरूपम् इति, तादृशं किमपि नास्ति, तादृशं नास्ति. तत्र क्रमस्य परिवर्तनं कुर्वन्ति चेत् तत्र क्लेशः भवति मनसि, अस्तु एतत् किमस्ति इति कृत्वा, तावदेव. अस्तु, कमक्षि भगिनी, अग्रे तत्र ज्ञानिने इति अस्ति.
आं महोदय, ज्ञानिन् ज्ञानिने दत्तं, ज्ञानिने इति चतुर्थीविभक्तेः एकवचनं शब्दः, अतः ज्ञानिने ज्ञानिभ्यां ज्ञानिभ्यः.
समीचीनं भगिनि, हा ज्ञानिन् इति ज्ञानिने ज्ञानिभ्यां ज्ञानिभ्यः. समीचीनं भगिनि. अस्तु, अग्रे लक्ष्मी भगिनि. लक्ष्मी भगिनि, हा समीचीनं भगिनि. अस्तु, तत्र कीदृशपदं भगिनि तत्र, विद्युत् आ इति अस्ति, तत्र विद्युत्
विद्युत्
हा समीचीनं भगिनि, समीचीनं. तत्र स्त्रीलिङ्गपदं, स्त्रीलिङ्गपदम् अस्ति, स्त्रीलिङ्गपदम् अस्ति, तडित् हा सरित् तडित् इति तादृश, समीचीनं भगिनि. विद्युत् इति विद्युता, समीचीनं. अतः तत्र पुनः एकवारं तत्र रूपम् एकवारं वदतु, पुनः एकवारं वदतु भगिनि.
प्रथमविभक्ति विद्युत् विद्युदौ विद्युदः,
तृतीयविभक्ति
विद्युदा विद्युद्भ्यां विद्युद्भिः
विद्युद्भिः समीचीनं भगिनि हा अस्तु अग्रे सूर्यकुमारी भगिनि सूर्यकुमारी भगिनि अग्रे
हा महोदय चक्षुषु प्रातिपदिकं चक्षुद्भिः तृतीयविभक्ति बहुवचनं चक्षुषा चक्षुभ्यां चक्षुर्भिः
तत्र चक्षुष इति कीदृशपदं शकारान्त
शकारान्त स्त्रीलिङ्गपदं
स्त्रीलिङ्गपदं
नपुंसकलिङ्गं
तत्र प्रायशः
धनुष् वपुष् इत्यादय श्रेयस्
तत्र पश्यामः तत्र अस्तु
तत्र अन्ते दत्तमस्ति महोदय दत्तमस्ति परिशिष्टे दत्तमस्ति
एकवचनं किमस्ति
चक्षुषनुष् वपुष् इत्यादयः चक्षुषा चक्षुर्भ्यां चक्षुर्भिः
इति तृतीयविभक्तिरूपं नरेश महोदय समीचीनं वा
आम् समीचीनम् अस्ति
अस्तु
अन्तिमभागे दत्तमस्ति परिशिष्टभागे
अस्तु अग्रे रघुवीरनन्दमहोदय अग्रे तत्र श्रोतस् इति सकारान्तपदम् श्रोतस् रघुवीरनन्दमहोदय अस्ति वा
नपुंसकलिङ्गं महोदय
महोदय
हा श्रोतस् इति
श्रोतस्
मनसि वा मनस् इव महोदय
श्रोतः वा महोदय
श्रोतस् इति हा श्रोतः इति प्रथमविभक्तिरूपं सत्यं महोदय किन्तु तत्र श्रोतसा इति दत्तमस्ति अतः तत्र विभक्ति का
तृतीया विभक्ति
तृतीया समीचीनं महोदय अतः तत्र मनस् इति पदस्य रूपं दृष्ट्वा श्रोतसा
श्रोतश्च श्रोतसाभ्यां श्रोतसा श्रोतोभ्यां महोदय
हा श्रोतोभ्यां
मनसा
श्रोतोभ्यां मनोभिः मनोभ्यां मनोभिः श्रोतसा श्रोतोभ्यां
श्रोतोभिः
हा श्रोतोभिः श्रोतोभिः समीचीनं महोदय अस्तु अस्तु अग्रे शुभदा भगिनि
महोदय नाम्ने इति तृतीया एकवचन नामन शब्दस्य नकारान्त नपुंसकलिङ्गि सो नाम्ने चतुर्थी एकवचन ऐम् सोरी क्षम्यतां चतुर्थी एकवचन नाम्ने नामभ्यां नामभ्यः इति रूपं
नाम्ने
नामभ्यां नामभ्यः
नामभ्यः अस्तु समीचीनं भगिनि अस्तु अस्तु तर्हि तत्र इदानीं तत्र शाखिन् इति अग्रे अस्तु तत्र रघुपतिमहोदय शाखिन् इति करोति वा
शाखिभिः दत्तमस्ति शाखिभिः तृतीया विभक्ति भवति अस्तु शाखिना इति भवति शाखिना शाखिभ्यां शाखिभिः इति अहं चिन्तयामि तदेव वा योगिन्
योगिन् इति अथवा तत्र ज्ञानिन् इति तादृशं गुणिन् सत्यं महोदय अतः तत्र शाकिना शाकिभ्यां शाकिभिः
शाकिभिः
समीचीनं महोदय अस्तु अग्रे तत्र ललिता भगिनी अग्रे तत्र योगिन् इति
योगिन् योगिन् नकारान्तपदं योगिनः
तत्र योगिनः इति दत्तमस्ति
बहुवचनः
इति
प्रथमाविभक्ति बहुवचन अस्ति योगिनः योगिन् योगिनौ योगिनः अथवा
षष्ठी एतावत् न कृतं भगिनि अत्र केवलं विकल्पः अस्ति द्वितीया तृतीया चतुर्थी अतः किं भवति
द्वितीया विभक्ति बहुवचनमपि
समीचीनं अतः द्वितीया विभक्तेः रूपाणि वदन्तु वदतु
योगिनं योगिनं योगिनौ योगिनः
समीचीनं भगिनि अस्तु समीचीनम् अस्तु अग्रे हा गीताञ्जलि भगिनि अग्रे तत्र जगत् इति
जगत्तु
हा एतत् तकारान्तपदम् अस्ति भगिनि जगत् अत्र प्रायशः न दत्तमस्ति किन्तु तत्र करपत्रे अस्ति भगिनि तत्र स्वरूप महोदयस्य करपत्रे अस्ति जगत् जगति जगन्ति इति
जगत् जगति जगन्ति द्वितीया महोदय
हा द्वितीया अत्र द्वितीया नपुंसकलिङ्गपदम् अस्ति अतः तत्र रूपसामान्यम् अस्ति हा समीचीनं भगिनि अस्तु अग्रे जगत् जगति जगन्ति जगत् जगति जगन्ति इति तदनन्तरं तु अत्र पुस्तके न दत्तमस्ति किन्तु तत्र करपत्रे दत्तमस्ति जगता जगद्भ्यां जगद्भिः जगते जगद्भ्यां जगद्भ्यः इति तत्र तु तत्र किं तत्र यथा सरित् शब्दः अस्ति तादृश एव सरिता सरिद्भ्यां सरिद्भिः अपि सरिते सरिद्भ्यां सरिद्भ्यः तादृश एव अत्र जगता जगद्भ्यां जगद्भिः जगते जगद्भ्यां जगद्भ्यः इति तृतीया अपि चतुर्थीविभक्तिरूपाणि भवन्ति अस्तु तत्र सरस् अपि आशिष् तदनन्तरं कथा आगच्छति अस्तु तत्र सूर्यकुमारी भगिनी अग्रे
सरस् प्रातिपदिकं सरांसि बहुवचनं एक प्रथमाविभक्ति बहुवचनं सरसि सरांसि
तत्र सरस् सरसि सरांसि अस्ति चेत् तत्र लिङ्गं किं नपुंसकलिङ्गं समीचीनं भगिनि हा तत्र द्वितीयभक्तिरूपम् अस्ति समीचीनं तावदेव अस्तु अग्रे कामाक्षि भगिनि अग्रे तत्र आशिष् इति अस्ति
आशीर्भ्यः दत्तमस्ति चतुर्थी विभक्ति बहुवचनं तर्हि आशिषे आशीर्भ्याम्
समीचीनं भगिनि हा आशिषे आशीर्भ्याम् आशीर्भ्यः इति रूपं भवति समीचीनं भगिनि अस्तु इदानीं तत्र हा वदतु भगिनि
क्षम्यतां महोदय
किं भगिनि
सरस् इति एकवचनं सरः
सत्यं सरः सरसि सरांसि इति मनःवत् ओ भवती सरस् इति उक्तवती इति वा आमामां क्षम्यतां भगिनि हा 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 सत्यं सत्यं तत्र मनः मनसि मनांसि सरः सरसि सरांसि मनः पदवत् सत्यं भगिनि समीचीनं धन्यवादः हा अस्तु अग्रे तत्र इदानीं तत्र कथायाः विषयः आगच्छति कथायाः विषये केचन प्रश्नाः सन्ति तत्र पश्यामः तत्र किं सप्ताहद्वयम् अभवत् इति कृत्वा अस्तु पश्यामः किं किं कः स्मरति कः का न स्मरति इति सर्वं रघुवीरानन्दमहोदय तत्र आरम्भं करोति वा तृतीय अभ्यासः तत्र रघुनन्द महोदय अस्ति वा अस्तु
क्षम्यतां
अस्तु तत्र तृतीय अभ्यासे आरम्भं करोति वा महोदय
आं महोदय रेखाङ्कितशब्दानां समानर्थकशब्दान् पाठभागात् चित्वा लिखत पिता सर्वशास्त्रनिपुणः पण्डितः च आसीत् भगत् चित्वा लिखत सर्वशास्त्रनिपुणः विदुषः
तत्र पण्डितः पण्डितः इति स्थाने किं भवति विद्वान्
विद्वान्
विद्वान् सर्वशास्त्रनिपुणः सर्वशास्त्रविद् इति यथा तत्र वाक्यम् अस्ति पिता सर्वशास्त्रविद् विद्वान् च आसीत् इति तावदेव महोदय तत्र तत्र यदस्ति तद् वक्तव्यं तावदेव हा सर्वशास्त्रनिपुणः पण्डितः किन्तु सर्वशास्त्रनिपुणः अपि पण्डितः हा सर्वशास्त्रविद् अपि विद्वान् तत्र
विद्वान्
विद्वान् अस्ति हलन्तपदं पण्डितः अस्ति अजन्तपदं सर्वशास्त्रनिपुणः अजन्तपदं सर्वशास्त्रविद् हलन्तपदं तावदेव किन्तु समानार्थकपदम् अस्तु
महोदय
हा तत्र अग्रिममपि करोति वा महोदय तत्र
आं महोदय पुत्रं बुद्धियुक्तं शास्त्रविज्ञं च कर्तुम् अधिकं प्रयासं कृतवान् पुत्रं बुद्धिमन्तं शास्त्रविद्वांसं च कर्तुं महान्तं प्रयासं कृतवान्
महान्तं प्रयासं कृतवान् तत्र पुत्रः बुद्धियुक्तः शास्त्रविज्ञः प्रायशः अस्ति इति मन्ये
शास्त्रविद्वांसम् इति
विद्वांसम् इति द्वितीयविभक्तिरूपम् अस्ति कर्मपदम् इति कृत्वा कर्तुं तत् कर्तुं तस्य कर्मपदम् अपि अधिकं प्रयासं कृतवान् प्रयासं पदस्य विशेषणम् अधिकम् अत्रापि महान्तम् इति समीचीनं महोदय अतः तत्र एतत् सरलपदम् अस्ति किन्तु तत्र नूतनपदं महान्तम् इति आसीत् हलन्तपदं तस्य विभक्ति सर्वं दृष्टवन्तः अस्तु धन्यवादः महोदय शीतल भगिनी नमस्कारः तत्र गीतासोपाने पेज् 22 मध्ये स्मः भगिनि
धन्यवादः महोदय नमस्कारः
अस्तु भगिनि हा नमस्कारः भगिनि अस्तु अग्रे तत्र नरेश महोदय अग्रे पठति वा तृतीय
महोदय तं पाठयितुम् अन्यान् पण्डितान् नियोजितवान् तं पाठयितुम् अन्यान् विदुषः नियोजितवान्
तत्र तम् इत्युक्ते तस्य पुत्रं तस्य पुत्रं खलु तस्य पुत्रं मल्लिनाथं पाठयितुं देवशर्मा अन्यान् पण्डितान् अथवा विदुषः नियोजितवान् समीचीनं महोदय अस्तु अग्रे गीताञ्जलि भगिनि
मल्लिनाथः शरीरेण च युवकः सञ्जातः
तत्र प्रायशः तत्र शरीरेण द्विवारं दत्तमस्ति भगिनि मम पुस्तके अपि किन्तु तत्र प्रथमं शरीरेण सम्यक् अस्ति द्वितीयशरीरेण इति पदस्य स्थाने वयेन इति प्रायशः स्थापनीयमस्ति इति मन्ये भगिनि वयेन अथवा तत्र वयेन इति प्रायशः
वयसा इति भवति खलु महोदय
तत्र वयस् क्षम्यतां तत्र अस्तु किन्तु महोदय तत्र अत्र कार्यं किम् इत्युक्ते तत्र अजन्तपदानाम् आवश्यकता अस्ति खलु अत्र अत्र प्रायशः वायेनापि इति न किन्तु शरीरेण इति तस्य तु द्विवारं नास्ति वयस् इति तत्र अन्य अजन्तपदं
आयुः आयुः भवति वा आयुषा
किन्तु तदपि हलन्तपदमेव भवति खलु
कायः शब्द काये शरीरेण कायेन
तद् वपुष अस्ति काय इति
तदेन लिखितः वयसा
वपुषा इति
शरीरेण वपुषा इति
प्रायशः तत्र
शरीरेण वपुषा युवकः सञ्जातः
पुस्तके अस्ति
हा तत्र किन्तु तत्र वयसा वपुषा द्वयमपि हलन्तपदम् अस्ति अत्र शरीरेण इति तत्र अजन्तपदम् अस्ति अतः द्वितीयशरीरेण स्थाने तत्र वपुषा इति यत् अस्ति तद् भवति शरीरेण वपुषा इत्युक्ते फार्म् इति कृत्वा शरीरः किन्तु अन्यत् अस्ति वयसा वयसा इति तत्र किं वक्तुं शक्नुमः तत्र
वयसा इत्युक्ते तृतीया
हा किन्तु तत्र किन्तु तत्र वय इति न न सत्यं भगिनि किन्तु तस्मिन् स्थाने अजन्तपदं किम् इति वयस् इति तु सकारान्तपदं
शरीरः
तत्र पूर्वं सर्वं तादृशमेव अस्ति भगिनि पण्डितः विद्वान् इति स्थाने पण्डितः इति अस्ति सर्वशास्त्रविद् इति स्थाने सर्वशास्त्रनिपुणः इति अस्ति अस्तु एतत् कुर्मः यद् दत्तमस्ति तस्य उत्तरं समीचीनम् उत्तरं तद् प्राप्नुमः प्रश्नः यद्यपि तत् प्रश्ने दोषः अस्ति चेत् किं कुर्मः अस्तु वयम् उत्तरं तु जानीमः तत्र प्रश्ने शरीरेण शरीरेण इति अस्ति अस्तु खलु अतः तत्र उत्तरं किं भवति हा वयसा वपुषा च युवकः सञ्जातः अस्तु समीचीनं हा अस्तु अग्रे सूर्यकुमारी भगिनी अग्रे
शास्त्रविघ्नैः श्यालैः मम पुत्रः उपहसितः भविष्यति शास्त्रविघ्नैः
तत्र वाक्यं किम् अस्ति तत्र पदं किम् अस्ति कथायां
शास्त्रविद्भिः
हा शास्त्रविद्भिः शास्त्रविद् हा शास्त्रविज्ञः शास्त्रविज्ञैः शास्त्रविद्भिः शास्त्रविद् अत्र शास्त्रविद्भिः शास्त्रविज्ञः शास्त्रविज्ञैः इति श्यालैः मम पुत्रः उपस्थितः भविष्यति समीचीनं भगिनि अस्तु अग्रे ललिता भगिनि
वदामि परिहासवचनानि श्रोतुम् आसक्ता सा स्वगृहं प्रति प्रस्थितवती सो परिहासवचनानि वचनानि इति
तत्र कथायां कथायां वाक्यमस्ति वाक्यमस्ति तद्दृष्ट्वा
वचांसि इति
हा वचांसि परिहासवचांसि
बहुवचनम्
विभक्तिका तत्र
प्रथमा विभक्ति बहुवचनस्ति तेषां परिवारः
श्रोतुम् इति अस्ति
अत्र अत्र द्वितीया विभक्ति अस्ति
हा समीचीनं समीचीनं भगिनि हा अतः परिहास वचांसि श्रोतुम् अशक्ता मल्लिनाथस्य पत्नी सा स्वगृहं प्रति प्रस्थितवती समीचीनं भगिनि अस्तु लक्ष्मी भगिनी अग्रे
सः मार्गम् उभयतः पलाशवृक्षान् अपश्यत् मार्गं पन्थानम् पन्थानम् उभयतः पलाशवृक्षान् शाकिनः पलाशशाकिनः अपश्यत्
अपश्यत् समीचीनं भगिनि हा अस्तु शुभदा भगिनी अग्रे
यशोयुक्तं सर्वशास्त्रनिपुणं पण्डितम् उपगत्य स्वं शिक्षितुम् अयाचत यशोयुक्तं सर्वशास्त्रनिपुणम्
तत्र
सर्वशास्त्रविदं पण्डितम् उपगत्य आत्मानं शिक्षितुम् अयाचत
हा तत्र प्रायशः तत्र यशोयुक्तं सर्वशास्त्रनिपुणं तदपि हा तदपि प्रायशः
यशस्विनं सर्वशास्त्रविदं पण्डितम् उपगत्य आत्मानं शिक्षितुम् अयाचत
अयाचत समीचीनं भगिनि हा अस्तु रघुपतिमहोदय अग्रे
हा महोदय पत्न्याः वाण्या मलिनाथः जागरितः अभवत् वाणी इति अस्ति अति वाच् इति अत्र वाचा एकवचने अस्तु वाचा
पत्न्याः वाचा मलिनाथः अभवत् जागरितः अभवत् समीचीनं महोदय अस्तु शीतल् भगिनी वक्तुम् इच्छति वा जानाति वा कथां
न कथां न जानामि
अस्तु भगिनि अस्तु अतः अग्रे अग्रे तत्र अग्रिमपुटे यदस्ति तत्र भवती वदतु भगिनि हा चिन्ता मास्तु किन्तु एकवारं यदि जानाति चेत् वदतु अस्तु अस्तु तर्हि तत्र कामाक्षी भगिनी अग्रे वक्तुम् इच्छति वा
सः महापण्डिताय गुरवे दक्षिणां प्रदाय प्रतिनिवृत्तः प्रतिनिवृत्तः सः महाज्ञानिने गुरवे दक्षिणां प्रदाय प्रतिनिवृत्तः
हा समीचीनं भगिनि प्रतिनिवृत्तः तत्र महाज्ञानी ज्ञानिने महाज्ञानिने महापण्डितः महापण्डिताय अत्र महाज्ञानी महाज्ञानिने इति भवति अस्तु समीचीनं भगिनि अस्तु अग्रे ओ अग्रे एतत्तु तत्र हदन्तपदस्य आवश्यकता नास्ति इति मन्ये किन्तु तदपि कुर्मः तत्र सूर्यकुमारी भगिनी अग्रे पठति वा तत्र चतुर्थ अभ्यासः
एतेषां महोदय
हा सत्यं हा
एतेषां प्रश्नानाम् उत्तराणि लिखत प्रथमप्रश्नः मल्लिनाथः कस्य पुत्रः आसीत् मल्लिनाथः देवशर्मस्य पुत्रः आसीत्
अस्तु तत्र एतावत् तत्र षष्ठीविभक्ति न जानीमः इति कृत्वा तत्र शर्मा इति शर्मन् इति पदं भवति भगिनि तत्र देवशर्मा इति अतः तत्र देवशर्मणः हा देवशर्मणः शर्मणः पुत्रः आसीत् हा मल्लिनाथः देवशर्मणः पुत्रः शर्मणः शर्मणः रकारन्तस्य अनन्तरं मकारः अस्ति इति कृत्वा तत्र णत्वं भवति. अतः देवशर्मणः देवशर्मणः पुत्रः
पुत्रः
आसीत् इति. समीचीनं भगिनि. अस्तु अग्रे रघुवीर महोदय अग्रे.
महोदय पलाशपुष्पदर्शनेन सन्तुष्टं मल्लिनाथं पत्नी किम् उक्तवती? पन्थान उभयतस्ति
तत्र आम् इति आरभ्य.
आम् पलाशकुसुमं मनोहारि एव. ओ तत् पूर्वं पूर्णं
किन्तु तत्र मनोहारि
एव किन्तु अविद्यावन्तं भवन्तं यथा तथैव निर्गन्धं निर्गन्धम् अथवा निष्प्रयोजनम् इति जनाः मन्यन्ते.
हा यथा यथा पलाशकुसुमं यद्यपि पलाशकुसुमं मनोहारी अस्ति किन्तु तत् निर्गन्धम् अस्ति इति कृत्वा निष्प्रयोजनं भवति इति मन्यन्ते, तथैव भवन्तमपि जनाः अविद्यावन्तम् इति कृत्वा निष्प्रयोजनम् इति मन्यन्ते इति. समीचीनं महोदय. अस्तु अग्रे तत्र
महोदय पलाशपुष्पदर्शनेन किमर्थं दर्शनेन नास्ति महोदय? अणत्वं किमर्थं न अभवत्?
शकार अस्ति, शकार अस्ति खलु, व्यवधानमस्ति.
शकार अस्ति,
तकार अपि तकार तवर्ग अपि अस्ति नकार नकार नत्वं न भवति
न प्रथमं केवलं तत्र शकार अस्ति.
हा तत्र ऋकारः अनन्तरं नकारस्य मध्ये तत्र किं किं भवितुम् अर्हति, केन बाधा न भवति तत्र कवर्गः तावदेव. अतः अत्र तादृशः नास्ति इति कृत्वा तत्र नकारः एव अस्ति, बाधा भवति. समीचीनम्. अस्तु अग्रे तत्र अग्रे कः वदति तत्र? नरेश महोदय अग्रे.
आं महोदय. मल्लिनाथः अध्ययनार्थं कुत्र गतवान्? मल्लिनाथः अध्ययनार्थं वाराणसीं गतवान्.
हा समीचीनं. हा अस्तु अग्रे तत्र लक्ष्मी भगिनी अग्रे.
मल्लिनाथः कथं जागरितः अभवत्?
वाचा अथवा वाण्या मल्लिनाथः जागरितः अभवत्. समीचीनम्. अस्तु शुभद भगिनि अन्तिमं तत्र.
मल्लिनाथः केषां टीकाः रचितवान्? मल्लिनाथः कालिदासस्य कृतीनां पञ्चमहाकाव्यानां च टीकाः रचितवान्.
हा समीचीनं भगिनि. समीचीनम्. अतः तत्र प्रसिद्धः, स बहु प्रसिद्धः अस्ति कालिदासस्य कृतीनां टीकाः इति. अस्तु समीचीनम्. अस्तु, अत्र अग्रे तत्र श्लोकः श्लोकद्वयमस्ति, भगवद्गीतायाः श्लोकद्वयमस्ति, तदपि एकवारं परिशील्य अग्रे गच्छामः. तत्र रघुवीरानन्द महोदय, तत्र श्लोकः एकवारं पठति वा महोदय, श्लोकद्वयं.
एतौ गीताश्लोकौ पठत, अत्र प्रयुक्तान् हलन्तशब्दान् परिशीलयत च. किरीटिनं गदिनं चक्रहस्तम् इच्छामि त्वां द्रष्टुमहं तथैव, तेनैव रूपेण चतुर्भुजेन सहस्रबाहो भव विश्वमूर्ते. प्रशान्तमनसं येनं योगिनं सुखमुत्तमम् उपैति शान्तरजसं ब्रह्मभूतमकल्मषम्.
धन्यवादः महोदय, समीचीनमस्ति. अत्र परिशीलयामः, तत्र प्रथमश्लोकं प्रथमतया पश्यामः तत्र किं किम् अस्ति इति कृत्वा. तत्र यथा श्लोकः भवति, तत्र प्रथमतया अस्माकं कार्यं किम् इत्युक्ते, तत्र क्रियापदं कुत्र कुत्र अस्ति इति अन्वेषणं करणीयम् अस्ति. अत्र क्रियापदम् अस्ति वा अस्मिन् श्लोके?
अस्तु,
द्रष्टुम् इति अस्ति, द्रष्टुम् इति क्रियासूचकम्
अस्ति.
इच्छामि इति अस्ति, समीचीनं. हा, इच्छामि इति अस्ति. तदनन्तरं
भव,
हा भव इति, अतः तत्र भव इति अस्ति, द्रष्टुम् इति क्रियासूचकम् अस्ति, अपि इच्छामि इति अस्ति. अस्तु, समीचीनम्. अतः तत्र इच्छामि इति एकं क्रियापदम् अपि भव इति, तत्र वयं जानीमः तत्र क्रियापदम् अस्ति चेत् तत्र यद्यपि वाक्यं दीर्घं भवितुम् अर्हति, किन्तु प्रथमतया लघुवाक्यं तत्र करणीयम् अस्ति इति. अस्तु, तत्र लघुवाक्यम् इत्युक्ते किं? तत्र कर्तृपदं, कर्मपदं, क्रियापदं. तदनन्तरम् अन्ये विषयाः ये सन्ति, तान् सर्वान् योजयित्वा दीर्घवाक्यं कर्तुं शक्नुमः. किन्तु अवगमनार्थम् आरम्भे सरलवाक्यं करणीयम् इति. अतः तत्र इच्छामि, तत्र प्रायशः द्रष्टुम् इच्छामि इति प्रायशः वाक्यम् अस्ति. तदा इच्छामि इति अस्ति चेत् तत्र कर्तृपदं किं भवति?
अहं
द्रष्टुम्
इच्छामि,
इच्छामि इति भवति. अतः तत्र कर्मपदम् अस्ति वा अस्मिन् अस्मिन् श्लोके? किन्तु लघुवाक्यम् अस्ति इदानीं तत्र, अहं त्वां द्रष्टुम् इच्छामि इति एकं लघुवाक्यम् अस्ति. तदनन्तरं तत्र भव इति अस्ति, तत्र भव इति अस्ति, तत्र भव इति किं भवति?
त्वं भव
इति, भव इति लकारः कः? भव
बहु मध्यपुरुषे लोट्लकार अस्ति,
लोट्लकारः. हा, लोट्लकारः मध्यमपुरुषः, वचनं
एकवचनमस्ति,
एकवचनम्.
अतः तत्र कर्तृपदं किं भवति?
त्वं भव,
त्वम् इति एव भवति. अतः त्वं भव. इदानीं तत्र त्वं भव इति तत्र कर्मपदं भवति वा तत्र भव इति?
न भवति,
न भवति. अतः लघुवाक्यं केवलं त्वं भव एव अस्ति. इदानीं तत्र लघुवाक्यद्वयं वयं स्थापितवन्तः, सिद्धमस्ति लघुवाक्यद्वयम्. अहं त्वां द्रष्टुम् इच्छामि इति प्रथमलघुवाक्यं. द्वितीय लघुवाक्यम् अस्ति त्वं भव इति. अस्तु, इदानीं तत्र पश्यामः तत्र प्रत्येकपदस्य विभक्ति का इति तदपि पश्यामः. तदनन्तरं निर्णेतुं शक्नुमः. तत्र किरीटिनम् इति किन्तु विभक्ति का तत्र?
किरीटिनं,
अतः तत्र किरीटिनं विभक्ति का? द्वितीया अस्तु गदिनम् इति
त्वां
गदिनम्
अस्तु
तदनन्तरं तत्र चक्रहस्तम् इच्छामि इति अस्ति चक्रहस्तम् इच्छामि त्वां द्रष्टुम् अहं तथैव तदनन्तरं तेन एव रूपेण इति अस्ति तेन एव रूपेण तत्र तदनन्तरं तत्र तेन अपि रूपेण विभक्ति का तत्र तेन रूपेण एव तृतीया चतुर्भुजेन तत्रापि विभक्ति
तृतीया
अस्तु इदानीं सहस्रबाहो इति अस्ति तत्र विभक्ति का
हे सहस्रबाहो विषमूर्ते वा
हा सम्बोधनमस्ति सहस्रबाहो सहस्रबाहुः तत्र गुरो हे गुरो इति तत्र सहस्रबाहु सहस्रबाहो हे सहस्रबाहो सम्बोधनं विश्वमूर्ति तत्र अपि सम्बोधनं
विश्वमूर्ते
हे विश्वमूर्ते गुरुमूर्ते विश्वमूर्ते इति तत्र सम्बोधनं विश्वमूर्ते इति सम्बोधनं विश्वमूर्तिः विश्वमूर्ते हे विश्वमूर्ते अतः तत्र हे सहस्रबाहो हे विश्वमूर्ते त्वं भव इति प्रायशः तस्य सम्बोधनं त्वम् इति सम्बोधनं कृत्वा तत्र सहस्रबाहो त्वं भव इति इदानीं तत्र पश्यामः त्वाम् इति अस्ति इदानीं तत्र किरीटिनं गदिनम् इति तत्र किरीटिनम् इति कीदृशपदम् किरीटिनम् इति भवती सूर्यकुमारी भगिनी किम् उक्तवती किरीटिनम् इति किमस्ति प्रथमविभक्तिरूपं किम् अस्ति प्रातिपदिकं किरीटिन् इति किन्तु प्रथमविभक्तिरूपं किम् अस्ति न न न तत्र किरीटिनम् इति अस्ति तत् तत्तु द्वितीयविभक्तिरूपं तत्तु समीचीनं हा किन्तु तत्र कीदृशपदं तत्र गुणी इति पदमस्ति खलु गुणिन् इति भवति हा किरीटि किरीटि इति हा तत्र गुणी गुणिनौ गुणिनः गुणिनं गुणिनौ गुणिनः अत्र किरीटी किरीटिनौ किरीटिनः किरीटिनं किरीटिनौ किरीटिनः इति रूपं भवति समीचीनं हा तत्र किरीटि इति किरीटिन् इति अस्ति तत्र किरीटि इति प्रथमविभक्तिरूपम् अस्ति किन्तु अर्थः कः किरीटः इति साक्षात् नास्ति खलु
यः किरीटं धारयति सः
हा धरति धरति हा यस्य यस्य किरीटम् अथवा यस्मिन् यस्य शिरसि किरीटः अस्ति किरीटः अस्ति सः किरीटिन् सः किरीटि अत्र तत्र यस्य यस्मिन् वा इति तत्र इनि प्रत्ययः इति एकमस्ति तत्र गुणिः यस्य अथवा यस्मिन् गुणः अस्ति सः गुणिन् सः गुणी इति तादृश तत्र किरीटि इति भवति तत्र किरीटिनम् इति तदनन्तरं तत्र गदिनम् इति अस्ति गदिनम् इति तत्र किं भवति तत्र लक्ष्मी भगिनी वदतु गदिनम् इति रूपं किं द्वितीयविभक्ति गदिनम् इति हा गदिन् शब्दः गदिन् इति प्रातिपदिकं तत्र प्रथमविभक्ति एकवचनरूपं किं भवति हा गदी गदिनौ गदिनः गदिनं गदिनौ गदिनः तत्र यथा वयम् उक्तवन्तः किरीटि इति यः अथवा यस्य शिरसि किरीटः अस्ति सः किरीटि तादृशः गदी इति विषये विवरणं करोतु किन्तु तत्र हस्ते इति नास्ति केवलं यस्य अथवा यस्मिन्
यस्मिन्
अथवा यः गधां गृह्णाति इति किमपि तादृश अथवा यस्य गदा अस्ति अथवा यस्मिन् गदा अस्ति सः गदी इति अथवा यस्य हस्ते अपि तदपि वक्तुं अस्तु समीचीनम् इदानीं तत्र अग्रे तत्र चक्रहस्तम् इति अस्ति चक्रहस्तम् इति नपुंसकलिङ्गपदं वा अथवा किम् हस्तम् इच्छामि हस्तः अस्तु हस्तः इति तु तत्तु पुल्लिङ्गपदम् अस्ति हस्तः इदानीं तत्र चक्रहस्तः इति अस्ति इदानीं तत्र यस्मिन् हस्ते चक्रः अस्ति सः चक्रहस्तः इदानीं तत्र महिलायाः हस्ते चक्रः अस्ति इति भवति चेत् किं भवति तत्र यस्य यस्मिन् तादृश यस्याः अथवा यस्याम् इति तादृश अपि तत्र यस्याः हस्ते चक्रमस्ति अथवा यस्यां हस्तौ यस्यां हस्ते तत्र चक्रः अस्ति सा चक्रहस्ता इति प्रायशः भवति इति मन्ये अथवा चक्रहस्ता इति किन्तु अत्र चक्रहस्तः तत्र किमर्थं चक्रहस्त इत्युक्ते हस्तः इति पुल्लिङ्गम् इति कृत्वा न किन्तु अत्र भगवान् श्रीकृष्णस्य भगवतः श्रीकृष्णस्य विवरणं भवति इति कृत्वा तत्र श्रीकृष्णः चक्रहस्तः अतः पुल्लिङ्गपदमस्ति
चक्रहस्तम्
बहुव्रीहिसमासः इति विषयः चक्रहस्तः चक्रहस्तम् इति चक्रहस्तम् यस्मिन् हस्ते चक्रः चक्रमस्ति सः चक्रहस्तः
शब्दस्य समानार्थमिति
समीचीनं सत्यं भगिनि तत्र चक्रपाणि समीचीनं भगिनि अत्र तत्र अस्तु तत्र चक्रहस्तम् इच्छामि तत्र एतत् सर्वं किं भवति किरीटिनं गदिनं चक्रहस्तम् इच्छामि त्वां द्रष्टुम् अहं तथैव अतः अहं त्वां द्रष्टुम् इच्छामि कीदृशत्वां
किरीटिनं
त्वां गदिनं त्वां चक्रहस्तं त्वां द्रष्टुम् इच्छामि अहं किरीटिनं गदिनं चक्रहस्तं त्वां द्रष्टुम् इच्छामि तथैव तेनैव रूपेण चतुर्भुजेन तत्र किं भवति तेनैव रूपेण चतुर्भुजेन भव त्वं भव तेनैव रूपेण इत्युक्ते केनैव रूपेण किरीटिनम् इति तादृशरूपेण चतुर्भुजेन अपि सहस्र इति रूपेण त्वं भव हे सहस्रबाहु हे हे विश्वमूर्ते अहं किरीटिनं गदिनं चक्रहस्तं त्वां द्रष्टुम् इच्छामि तथैव तेनैव रूपेण चतुर्भुजेन त्वं भव इति भवति समीचीनं वा सर्वे अवगच्छन्ति वा अस्तु इदानीम् अग्रे गच्छामः तत्र अग्रे भवति तत्र गीताञ्जलि भगिनी अत्र अस्मिन् श्लोके क्रियापदं किम् अस्ति द्वितीयश्लोके
प्रशान्तमनसं ह्येनं योगिनं सुखम् उत्तमम् अत्र तु प्रथमपङ्क्तिशः तु
तत्र प्रशान्तं प्रशान्तमनसं हि एनं योगिनं सुखम् उत्तमम् तत्र प्रथमपङ्क्तौ क्रियापदं नास्ति अस्तु अग्रे
उपैति
शान्तरस रस शान्तरजसं
ब्रह्मभूतम्
ब्रह्मभूतम् अकल्मषम्
अकल्मषम्
ब्रह्मभूतम् अकल्मषम्
हा हा
किन्तु क्रियापदम् अस्ति वा अत्र अकल्मषं क्रियापदं नास्ति अकल्मषं क्रियापदं नास्ति उपैति 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 इति अस्ति तत्र उपैति इति एति सत्यं भगिनि एति इत्युक्ते एति इत्युक्ते गच्छति इति अर्थे
गच्छति
उपैति इत्युक्ते समीपं गच्छति तत्र अहं गृहस्य अहं गृहं गृहम् अथवा सः गृहम् उपैति इत्युक्ते सः गृहस्य समीपं गच्छति उपैति इति अस्तु अतः तत्र उपैति इति क्रियापदम् अस्ति तत्र वचनं क्रियापदस्य वचनम् अस्ति एकवचनम् अपि प्रथमपुरुषः अस्ति इदानीं तत्र कर्तृपदं किं भवति उपैति लट् लकारः सत्यं भगिनि हा उपैति इदानीं तत्र कर्तृपदं किम् अस्ति तत्र इदानीं पश्यामः तत्र योगिनं प्रशान्तमनसं तद् विभक्ति का तत्र तत्र विभक्ति द्वितीयविभक्ति अस्ति अस्तु हि एनम् इति अस्ति अपि योगिनं योगिनम् इति विभक्ति का तत्र वयं दृष्टवन्तः खलु योगी इति पदस्य रूपाणि दृष्टवन्तः खलु तत्र पूर्वम् इदानीमेव तत्र योगी योगिनं योगिनौ योगिनः योगिना योगिभ्यां योगिभिः योगिने योगिभ्यां योगिभ्यः इति अतः योगिनम् इति तत्र द्वितीयविभक्ति एकवचनरूपम् अस्तु अपि हि एनम् एनम् इत्युक्ते एतम् एषः इति पदस्य एनम् इति अतः तत्र एतम् इति अपि तदपि द्वितीयविभक्तिरूपमेव अस्ति एषः एनम् इत्युक्ते एतम् एषः अस्ति एषः पदस्य द्वितीयविभक्तिरूपम् एतम् अथवा एनम् अस्तु इदानीं तत्र उपैति शान्तरजसं तत् किं भवति तत्र सुखमुत्तमं तत् विभक्ति का तत्र किन्तु तत्र उत्तमम् इति अस्ति उत्तमम् इत्युक्ते तत्तु नपुंसकलिङ्गे अपि
भवितुमर्हति
उत्तमः इति भवितुमर्हति अतः न जानीमः किन्तु कर्तृपदम् आवश्यकं खलु अत्र कर्तृपदं भवेत् खलु तदपि भवितुमर्हति उत्तमः अस्ति चेत् उत्तमम् इति भवति किन्तु उत्तमम् इति नपुंसकलिङ्गे अपि भवितुम् अर्हति खलु अतः न जानीमः इदानीं पर्यन्तं किन्तु पश्यामः तत्र शान्तरजसं तत्र किम्
उत्तमं तु अव्ययपदं महोदय
किमर्थम्
अर्थं दत्तमेव
न न न तत्र उत्तमं तत्र समीचीनं समीचीनम् उत्तमम् इति तत् तत्तु अव्ययं प्रायशः किन्तु उत्तमः रामः तत्र तु अव्ययं नास्ति उत्तमा बालिका इति तत्र अस्तु तत्र शान्तरजसं तदनन्तरं ब्रह्मभूतम् अपि अकल्मषम् इति अथ तत्र योगिनम् इति अस्ति तत्र प्रायशः तत्र किं भवति, तत्र पश्यामः, तत्र योगिनं, तत्र उपैति, उपैति इत्युक्ते समीपं गच्छति इति. समीपं गच्छति चेत् तत्र कर्मपदं भवति खलु, तत्र गम् धातोः, गम् धातुः कर्म सकर्मकः वा अकर्मकः? सकर्मकः. तत्र उपैति अपि कर्मपदं भवति, अतः तत्र योगिनं, योगिनम् उपैति इति अस्ति. किन्तु कर्तृपदं किम्?
विष्णुः.
न उपैति इति अस्ति, अहं तु न भवति खलु. उपैति इति तु प्रथमपुरुष एकवचनरूपम्, अहम् इति नास्ति. तत्र
सः उपैति,
तत्र पूर्वस्मिन् श्लोके, पूर्वस्मिन् श्लोके वयं जानीमः, तत्र तु प्रायशः अर्जुनः तत् श्लोकम् उक्तवान् इति, कृष्णं भगवन्तं प्रति. किन्तु अत्र अर्जुनस्य श्लोकः नास्ति, न अर्जुनस्य वचनं नास्ति इदानीं. तत्र तत्र उपैति, योगिनम् उपैति. किम् उपैति तत्र? अस्तु, तत्र किम् उपैति इति पश्यामः. किन्तु कीदृशं योगिनम्? एनं योगिनं हि, हि इत्युक्ते हा एव, सः एव, अन्य नास्ति इति. तत्र योगिनं प्रशान्तमनसम् इति, प्रशान्तमनसं यथा वयं दृष्टवन्तः तत्र चक्रहस्तम् इति, तत्र प्रशान्तमनसम् इति पदस्य तत्र मनस् इति जानीमः, तत्र प्रशान्तमनस् इति तु मनस्, मनसि, मनांसि. तत्र तु सकारान्त नपुंसकलिङ्गपदम् अस्ति मनः इति, मनस्. किन्तु प्रशान्तमनसं तत् कीदृशपदं भवति? न विशेषणम् अस्ति. कस्य पदस्य विशेषणं? कस्य पदस्य
विशेषणं?
योगिनं, योगिनम् इति पदस्य
विशेषणं.
योगिनम् इति पदस्य विशेषणम् अस्ति. योगी, योगिनम् इति तु पुल्लिङ्गपदम् अस्ति, अतः प्रशान्तमनसमपि पुल्लिङ्गपदम् अस्ति. अतः तत्र सकारान्तपदमस्ति, प्रशान्तमनसम् इति सकारान्तपदमस्ति. प्रायशः तत्र विद्वांस्, तत्र विद्वां, विद्वस् इति प्रायशः तादृशपदं भवति इति मन्ये, अथवा मनसः इति, प्रायशः तादृशः एव भवति इति मन्ये. तत्र विद्वांसम् इति यति यथा अस्ति तथा तत्र प्रशान्तमनसं, किन्तु पुल्लिङ्गपदमस्ति. तत्र यस् तत्र विवरणं कर्तुं शक्नुवन्ति वा कोऽपि? शक्नोति वा? प्रशान्तमनसं योगी, योगी योगिनं, प्रशान्तमनसं योगिनं. तत्र योगी कीदृशः अस्ति? यस्य मनः प्रशान्तम् अस्ति. प्रशान्तं, प्रशान्तं मनः इति तु नपुंसकलिङ्गपदम् अस्ति, अतः यस्य मनः प्रशान्तम् अस्ति सः प्रशान्त, तादृशयोगी, तादृश सः प्रशान्त. तत्र प्रायशः मनस्, मनसम् इति तत्र प्रथम विद्वस् इति अहं चिन्तयामि, तत्र विद्वान् इति. किन्तु तत्र सम्यक्तया अहं प्रथमविभक्तिरूपं न जानामि तत्र. किन्तु तत्र विद्वांसम् इति तादृश एव प्रशान्तमनसम् इति अस्ति, अतः यस्य मनः प्रशान्तम् अस्ति तादृशयोगी अस्ति अत्र. तदनन्तरं शान्तरजसम्, तत्र रजस् अपि तत्र सकारान्तपदमेव, रजः इति गुणं, रज रजगुणं, तदपि नपुंसकलिङ्गे एव अस्ति रजस् इति. यतः मनस्, मनसि, मनांसि, रजस्, रजसि, रजांसि, रजः इति प्रथमविभक्ति एकवचनरूपं नपुंसकलिङ्गपदं. किन्तु शान्तरजसं तद् भवति पुल्लिङ्गपदं द्वितीयविभक्तिरूपं. तत्र विवरणं किं भवति? यस्य रजः
रजः
शान्तम् अस्ति, अथवा यस्मिन्, यस्मिन् रजगुणं रजोगुणं शान्तमस्ति सः तादृशः योगी तम् तम् इति. तदनन्तरं तत्र अन्यत् अस्ति ब्रह्मभूतम् ब्रह्मभूतम्. तत्र किं भवति? हा ब्रह्मभूतः. तत्र ब्रह्मभूतः इत्युक्ते तत्र समानार्थकपदम् इति किं भवति? तत्र ब्रह्मलीनः इति. हा तत्र ब्रह्मणि लीनः यः सः ब्रह्मभूतः तादृशः योगी अत्र. ब्रह्मणि लीनः योगी एषः इति. अपि अकल्मषम्. अकल्मषम् इत्युक्ते कल्मषम् इत्युक्ते
मलिनम्.
हा मलिनः यः अस्ति किन्तु एषः
अकल्मषम्.
हा तत्र तस्य मनः अकल्मषम् अस्ति. तत्र मनस् इति विषयः अतः एष तस्य मनः अकल्मषम् अस्ति. मलिनः नास्ति. एषः योगी मलिनः नास्ति इति. अस्तु अतः तत्र ब्रह्मभूतम् अकल्मषं शान्तिरजसं प्रशान्तमनसम् एनं योगिनम् उपैति. इदानीं प्रश्नः अस्ति तस्य तत्र कोऽपि गृहम् उपैति, कोऽपि गृहं गच्छति, अथवा तत्र चिन्तयामः तत्र सीता गृहं गच्छति अथवा रामः गृहं गच्छति, रामः गृहम् उपैति. तत्र गृहम् इति स्थाने अत्र किम् अस्ति? योगिनम् इति अस्ति. योगिनम् उपैति कर्मपदम्. अपि कर्मपदस्य विशेषण तत्र अनेक विशेषणानि सन्ति. तत्र प्रशान्तमनसम् एकं, शान्तरजसम् अन्यत्, ब्रह्मभूतम् अपि अकल्मषम् इति. सर्वं विशेषणं योगिनम् इति. अत्र तादृशयोगिनम् उपैति. इदानीं तत्र रामः गृहम् उपैति अथवा सीता गृहम् उपैति इति. इदानीं तत्र कर्तृपदं किं भवति? उत्तमं सुखम् उपैति. उत्तमं सुखं योगिनम् उपैति. तस्य समीपं गच्छति. उत्तमं सुखं प्रशान्तमनस्थं शान्तरजसं ब्रह्मभूतम् अकल्मषं योगिनं हि एनं योगिनं हि उपैति इति भवति. अस्तु समीचीनं वा? तत्र अन्यत् बहु किमपि वक्तव्यं प्रायशः अस्ति, किन्तु एतत् प्रथमस्तरीय विवरणम् इति मन्ये. हा अस्तु प्रश्नः अस्ति चेत् पृच्छन्तु.
सुखं सुखम् उत्तमम् इति कर्तृप्रदं भवति महोदय.
हा आं भगिनि. उत्तमम् इति विशेषणम्. उत्तमं सुखं योगिनम् उपैति.
सुखम् उपैति कीदृशसुखम्? उत्तमं सुखम् उपैति.
हा कम् उपैति अथवा किम् उपैति? योगिनम् उपैति. यथा तत्र चीता उपैति, किम् उपैति? गृहम् उपैति. तस्य समीपं गच्छति इति. सुखम् उत्तमं सुखं कस्य समीपं गच्छति? योगिनः समीपं गच्छति अथवा योगिनम् उपैति इति. अस्तु समीचीनम्. अस्तु अग्रे गच्छामः. तत्र कामाक्षी भगिनी, तत्र तस्य अधोभागे सूक्तिः इति अस्ति, तत् पठति वा भगिनि?
आं महोदय. सूक्तिः उद्योगिनं पुरुषसिंहम् उपैति लक्ष्मीः.
हा अस्तु. तत्र क्रियापदं किम् अस्ति?
उपैति.
उपैति. अस्तु कर्तृपदम्?
उद्योगिनं पुरुषसिंहम् उपैति लक्ष्मीः. कर्तृपदं पुरुषः
न न पुरुषसिंहं. तत्र पुरुषसिंहं
पुरुषसिंहं
हा पुरुषसिंहम् इति पदम् अस्ति, तत् पुरुषसिंहः इति भवति किन्तु पुरुषसिंहम् इति अस्ति, अतः तत्तु कर्तृपदं नास्ति. लक्ष्मीः, हा लक्ष्मीः एव, लक्ष्मीः उपैति, लक्ष्मीः समीपं गच्छति. कं गच्छति, कम् उपैति, हा कस्य समीपम् अस्तु, कम् उपैति इत्युक्ते
यः
पुरुषसिंहं, हा यः उद्योगी अस्ति. हा वदतु भगिनि, हा हा वदतु.
उद्योगिनं पुरुषसिंहं समीपं गच्छति लक्ष्मीः.
हा इदानीं तत्र क्रमेण वदतु, तत्र वाक्यस्य क्रमः अस्ति खलु, कर्तृपदं कर्मपदं क्रियापदम् इति. हा
लक्ष्मीः उद्योगिनं पुरुषसिंहम् उपैति
इति वाक्यं भवति. समीचीनं भगिनि, हा लक्ष्मीः उपैति, कम् उपैति, उद्योगिनं पुरुषसिंहम् उपैति. पुरुषसिंहः तत्र यः पुरुषेषु सिंहः इव अस्ति इत्युक्ते तत्र धैर्यशाली अस्ति इति. तत्र तम् उपैति, तं हा तम् उपैति अपि उद्योगिनम् इति, तत्र उद्योगिनम् इति कीदृशपदं, हलन्तपदमेव. तत्र प्रथमाविभक्तिरूपं किम्? हा उद्योगिन् इति प्रातिपदिकम्, उद्योगी इति प्रथमाविभक्ति एकवचनरूपं. यस्मिन् हा हा तत्र यस्य अथवा यस्मिन् इति, पुनः यस्य अथवा यस्मिन् उद्योगः अस्ति इत्युक्ते सः सर्वदा कार्यं कार्ये निमग्नः अस्ति, अलसः नास्ति इति. हा अत्र कुत्रापि गत्वा उद्योगं करोति इति न, तादृशः अर्थः नास्ति अत्र. हा उद्योगी उद्योगिनम् उद्योगी इत्युक्ते सर्वदा किमपि कुर्वन् अस्ति, अलसः यः नास्ति इति. तत्र तादृशपुरुषस्य पुरुषं, तत्र पुरुषसिंहम् उद्योगिनम् उपैति लक्ष्मीः इति. धनं तस्य समीपं गच्छति, अथवा लक्ष्मीः इति केवलं धनं न, सर्वश्रियः इति श्रेयः सर्वं तस्य समीपं गच्छति आगच्छति इति. लक्ष्मीः उद्योगिनं पुरुषसिंहम् उपैति. अस्तु अस्तु, शीतल् भगिनी धन्यवादः भगिनी. अत्र शीतल् भगिनी अग्रे अमरकोशः इति अस्ति, तत्र पठति वा भगिनि?
अमरकोशः ग्रामी तु भारती भाषा गीर्वाग्वाणी सरस्वती व्याहार उक्तिर् लपितं भाषितं वचनं वच.
हा तत्र अग्रेपि वाक्यमस्ति, तदपि पठतु भगिनि.
ब्राह्मी भारती भाषा गिही वाग् वाणी सरस्वती व्यवहारः उक्तिः लपितं भाषितं वचनं वचः इति त्रयोदश नामानि भाषायाः.
हा भाषायाः, तत्र अमरकोशस्य विषयः अस्ति, तत्र समानार्थकपदानि दत्तानि सन्ति अमरकोशे. तत्र अस्माकं किं पद वोकाबुलरी इति यद् वदामः, तस्य वर्धनं भवति अमरकोशस्य पठनेन. तत्र भाषा इति पदस्य समानार्थक पदानि दत्तानि सन्ति, तत्र प्रायशः तत्र ब्राह्मी भारती भाषा गीः वाग् वाणी सरस्वती सर्वं स्त्रीलिङ्गे अस्ति. तदनन्तरम् उक्तिः अपि स्त्रीलिङ्गे अस्ति. व्यवहारः तत्तु पुल्लिङ्गपदम् अस्ति. तदनन्तरं लपितं भाषितं वचनं वचः सर्वं नपुंसकलिङ्गे अस्ति. अतः तत्र यदि वयम् अभ्यासं कर्तुम् इच्छामः, तत्र हलन्तपदानाम् अभ्यासः विभक्ति वा इति विषये, तत्र एतत् स्वीकृत्य वयं कर्तुं शक्नुमः. तत्र वाग्भाषा इति स्वीकृत्य तस्य पदस्य विभक्तिरूपाणि यदि कुर्मः चेत् बहु लाभः भवति. अस्तु अग्रे, तत्र समानार्थकपदानि. अतः तत्र ब्राह्मी, भारती वा, भाषा वा, गी वा, वाक्, वाणी, सरस्वती, व्यवहारः, उक्तिः, लपितं, भाषितं, वचनं, वचः, यत् यत् कुत्रापि एतत् पदं पश्यामः वयं जानीमः तत्र भाषा इति एकः तस्य पदस्य एकः अर्थः अस्ति इति. अस्तु, अग्रे तत्र ललिता भगिनी अग्रिमं पठति वा, तदनन्तरं स्थगयामः.
विद्वान् विपशिद्दोषज्ञ संशुद्धिः को विधो बुधः धीरो मनीषिज्ञः प्राज्ञः संख्यावान् पण्डितः कविः धीमान् सूरिः कृती कृष्टिर्लब्धवर्णो विचक्षणः दूरदर्शी दीर्घदर्शी श्रोतस्त्रयश्चान्दसौ समौ. विद्वान् विपश्चिद्दोषज्ञः विद्वान् विपश्चित् दोषज्ञः सन् सुधीः कोविदः बुधः धीरः मनीषिज्ञः प्राज्ञः सङ्ख्यावान् पण्डितः कविः धीमान् सूरिः कृती कृष्टिः लब्धवर्णः विचक्षणः दूरदर्शी दीर्घदर्शी इत्येतानि द्वादशनामानि.
अस्तु, अतः तत्रापि तत्र हलन्तपदम् अस्ति, अजन्तपदमपि अस्ति, अतः तत्र एतानि पदानि उपयुज्य अभ्यासं कर्तुं शक्नुमः. अस्तु, तर्हि समीचीनमस्ति. अत्र
विशेषणं
न समानार्थकपदं पण्डितं, पण्डितम् इति पदस्य समानार्थकपदं. लब्धवर्णः अस्ति चेत् पण्डितः, तत्र विद्वान् इति दृष्टवन्तः, विद्वान् अपि पण्डितः इति. अतः अन्यानि नामानि अपि सन्ति पण्डित समानार्थक नामानि. अस्तु, तर्हि तत्र रघुवीरानन्दमहोदय तत्र शान्तिमन्त्रं वदति वा, तदनन्तरं समापयामः.
पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. ॐ शान्तिः शान्तिः शान्तिः. हरिः ओम्. श्रीगुरुभ्यो नमः. हरिः ओम्. नमस्कारः, धन्यवादश्च महोदय.
नमस्कारः, धन्यवादः सर्वेषां. नमस्कारः, धन्यवादः. नमस्कारः.